सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति पञ्चमी विभक्ति इति. तत्र पञ्चमीविभक्तिरूपं दृष्टवन्तः, अपि तस्याः प्रयोगाः अपि कीदृशाः इति तदपि अस्माभिः दृष्टः एव. तत्र पुटसङ्ख्या अस्ति 126. गतवर्गे तः पर्यन्तम् इति रूपं वयं दृष्टवन्तः, तः पर्यन्तम् इति. अत्र तः पर्यन्तम् इति विषये तत्र गृहपाठः आसीत्, पञ्चवाक्यानि लिखन्तु इति. तत् कृत्वा अग्रे गच्छामः. तत्र वारमपि अद्य आरभ्य इति. तदनन्तरं वयम् अग्रे अद्यतनविषय प्रायशः भवति क्त्वा इति प्रत्ययं, क्त्वान्तरूपं, पठित्वा गत्वा इति विषयः भवति. तत्र उषा भगिनी, तः पर्यन्तम् इति तादृशवाक्यं वदति वा?
आं महोदय.
हा,
अहं प्रतिदिनं प्रातः सार्धषट्वादनतः सार्धसप्तवादनपर्यन्तं पाकं करोमि. कार्यसिद्धि हनुमान् मन्दिरे प्रतिशनिवासरे नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति.
समीचीनं भगिनि.
प्रति बुधवासरे दशवादनतः सार्ध दशवादनपर्यन्तम् उद्यानपालकः मम गृहम् आगच्छति.
तद् वाक्यं पुनरेकवारं वदतु भगिनी कृपया.
प्रति बुधवासरे दशवादनतः दशवादनतः सार्धदशवादनपर्यन्तम् उद्यानपालकः मम गृहम् आगच्छति.
अस्तु भगिनी. अस्तु, समीचीनं.
प्रति सोमवासरे मध्याह्ने द्वादशवादनतः सार्धद्वादशवादनपर्यन्तं मम पुत्र्या सह दूरवाण्यां भाषणं करोमि.
सम्भाषणं करोमि. बहु समीचीनमस्ति भगिनी. तत्र तः पर्यन्तम् इति कालं सूचकं पदद्वयमस्ति. तः इति कदा कार्यम् आरम्भं कुर्मः इति सूचयति. पर्यन्तं यदा तस्य अन्तः भवति इति तत् सूचयति. समीचीनं भगिनि, तः पर्यन्तम् इति.
अस्माकं वर्गः प्रति मङ्गलवासरे सायङ्काले सार्धषड्वादनतः अष्टवादनपर्यन्तम् अनुवर्तते.
समीचीनं भगिनि.
संस्कृतस्य वर्गः इति.
संस्कृतस्य वर्गः सार्धसप्तवादनतः नववादनपर्यन्तम् इति भवति. समीचीनं भगिनि. समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र उमा मीनाक्षी भगिनी नमस्कारः.
नमस्ते.
नमस्कारः भगिनी. रघुपति महोदय नमस्कारः.
नमस्कारः.
शुभा भगिनी वाक्यानि वदति वा?
पञ्चनिमेषानन्तरं वदामि महोदय.
अस्तु भगिनि, अस्तु भगिनि. शोभा भगिनी, अहं जानामि भवती प्रवासे आसीत् इति, अतः न पृच्छामि, किन्तु यदि वक्तुम् इच्छति चेत् वदतु, नो चेत् चिन्ता मास्तु.
अहम् अधुना किञ्चित् रचयामि अपि च वदामि महोदय.
अस्तु वा, अस्तु भगिनि, अस्तु. वाक्यम् एकम् अथवा द्वयं तावत् समीचीनम्. अस्तु, उमा मीनाक्षी भगिनी वदति वा?
वदामि, परन्तु किं वक्तव्यं तत्तु वदतु.
सः पर्यन्तम् इति तादृशवाक्यं, सः पर्यन्तम्.
ओ,
गतवर्गे
न पादोन षट् वादनतः पञ्चाधिक अथवा पञ्चाधिक षट् वादनपर्यन्तम् अहं प्रयत्नं कृतवती भवतः वर्गे आगन्तुम्
इति वा? तत्र किं दूरवाण्या
क्लेशः
अभवत्? अस्तु 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 भगिनि, समस्या आसीत्. अस्तु, किन्तु सङ्गणकद्वारा आगच्छति वा अथवा दूरवाण्या?
दूरवाणी न, सङ्गणक इण्टर्नेट् द्वारा एव अहम् आगन्तुं प्रयत्नं करोमि, परन्तु क्लिक् कृतवती तत्र यद् दत्तमस्ति न लिङ्क् तत्र क्लिक् कृतवती रन् कृतवती किमपि न रन् अभवत्। तदनन्तरं यद् डौन्लोड् कृतवती ऐकान् तत्र अहं क्लिक् कृतवती, तत्र तु किं जायिन् मीटिङ्ग् कुत्र गन्तव्यं न ज्ञातवती।
ओ अस्तु अस्तु, पुनः दृष्ट्वा पुनः
ट्रायल् एण्ड् एरर् मध्ये आगतवती।
तदेव अस्माकं जीवनं खलु भगिनि। बहु समीचीनतया समीचीनमस्ति भवती आगतवती, समीचीनं भगिनि। सङ्गणकद्वारा इति सङ्गणकम् इति नपुंसकलिङ्गपदम् इति मन्ये, तत्र समस्तपदं भवति सङ्गणकद्वारा इति समस्तपदम्। रघुपतिमहोदय भवानपि वाक्यं वक्तुमिच्छति वा तः पर्यन्तम् इति? अस्तु अस्तु, चिन्ता मास्तु चिन्ता मास्तु, किन्तु
एकवाक्यं वदामि। हिमालयतः कन्याकुमारी पर्यन्तं या भूमिः अस्ति सा भारतम् इति
उच्यते। समीचीनं महोदय, समीचीनं महोदय। अस्तु, शुभा भगिनी वक्तुम् इच्छति वा इदानीम्?
आं महोदय, प्रति रविवासरे प्रातः द्वादशवादनतः पञ्चऊन एकादशवादनपर्यन्तम् अहं बालान् पाठयामि। गतमङ्गलवासरे प्रातः सार्धसप्तवादनतः सार्ध अष्टवादनपर्यन्तं मन्दिरे एका विशेषपूजा प्राचलत्।
केवलं प्रश्नार्थं, तत्र प्राचलत् इति रूपं कीदृशम् इति किञ्चित् वदति वा?
आम् आं महोदय, प्रचलति इत्यस्य भूतकाल लृट् 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 वा लृट् लकाररूपं
लङ् लकाररूपम् इति,
क्षम्यतां, लङ् लङ् लकाररूपं।
किन्तु तत्र किमस्ति, तत्र
प्राय
उपसर्ग उपसर्ग अस्ति इति कृत्वा समीचीनं भगिनि। समीचीनं,
आवां परह्यः भगवद्गीतायां पञ्चमाध्याये दशमश्लोकतः पञ्चविंशतितमश्लोकपर्यन्तम् अपठाव।
समीचीनं भगिनि, समीचीनम्। अस्तु अस्तु, तर्हि तत्र सर्वे अवगच्छन्ति इति मन्ये तः पर्यन्तम् इति तस्य कीदृशप्रयोगः इति। अस्तु तर्हि, अतः अग्रे गच्छामः।
गतवासरे वयं दृष्टवन्तः सायं प्रातः इति।
अस्तु अस्तु अस्तु, तस्मिन् विषये किञ्चित् वक्तुम् इच्छामि तत्र। धन्यवादः भगिनी। तत्र
महोदय किञ्चित् लिखितम् अस्मि,
अस्तु अस्तु,
अधुना वदामि वा?
वदतु भगिनी, वदतु।
जनवरी मासस्य एकविंशतितमदिनाङ्कतः फेब्रुवरी मासस्य नवदशदिनाङ्कपर्यन्तम् अहं भारतदेशे आसम्। आरभ्यतः अन्त्यपर्यन्तम् आरम्भतः अन्तपर्यन्तं प्रवासः सम्यक् आसीत्। अद्य द्वे वादनतः इदानीं पर्यन्तं वक्तुं शक्नोमि वा इदानीं पर्यन्तम् इति?
द्विवादनतः इति प्रायः अस्ति खलु?
द्वि अस्तु महोदय, द्विवादनतः इदानीं पर्यन्तं मम गृहे अन्तर्जालः भग्नः जातः।
ओ अस्तु, समीचीनं भगिनि, समीचीनं, समीचीनं भगिनि।
ह्यः षड्वादनतः एकादशवादनपर्यन्तम् अत्र इत्युक्ते मम नगरे अत्र अतीव वृष्टिः अभवत्।
समीचीनं भगिनि, समीचीनं,
धन्यवादः।
अस्तु धन्यवादः भगिनि, समीचीनं, समीचीनम्। अस्तु, तत्र तः पर्यन्तम् इति विषयः इदानीं कृतवन्तः वयं, तत्र प्रातः अपि सायम् इति गतवर्गे प्रश्नः आसीत्, तत्र शुभभगिन्या प्रश्नः इति मन्ये, तत्र प्रातः अपि सायम् अहं दृष्टवान् तत्र पुष्पादीक्षितायाः पुस्तकमस्ति शीघ्रबोधव्याकरणम् इति, तत्र अव्यय आवली अस्ति, हा तत्र प्रातः अपि सायं द्वयमपि अव्ययम् इति लिखितमस्ति तत्र, हा अतः तत्र अव्ययम् अस्ति चेत् तत्र विभक्ति न भवति इति कृत्वा तत्र प्रातः एव रूपं भवति भगिनि.
अस्तु महोदय. अन्येकः प्रश्नः अस्ति, द्वितीयाध्यायस्य समस्तपदं चेत् आकारः एव सम्यक् वा अत्र?
तत्र तत् मया न चिन्तितं, चिन्तित्वा वदामि भगिनि, यदि अन्य कोऽपि जानन्ति वदन्तु, किन्तु
तत्र द्वितीयः अध्यायः द्वे पदे सन्ति,
तत्र प्रायशः द्वितीयाध्यायः इति समस्तपदं कृत्वा तदेव भवति इति मन्ये भगिनि, किन्तु पुनरेकवारं दृष्ट्वा वदामि. अस्तु अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र अग्रिमविषयः अस्ति वारम् अपि अद्य आरभ्य इति, तत्र प्रथमतया सम्भाषणमस्ति, तत्र छात्रा अपि छात्राः अपि आचार्यः, तत्र योगेशः अस्ति, सञ्जयः अस्ति, श्रद्धा अस्ति, अपि अन्य केवलं छात्राः इति. अस्तु, तत्र वंशीसुधा भगिनी नमस्कारः.
नमस्कारः
भगिनी. अस्तु अस्तु, तर्हि तत्र पेज् वदतु भगिनि, पेज् 127. हा 127. अस्तु, तर्हि तत्र छात्राः इति अस्ति, अपि आचार्यः अस्ति तत्र, अस्तु. रघुराम महोदय, अद्य भवान् वक्तुम् इच्छति वा? सम्भाषणमेव, केवलं पठनं.
पठनं
पेज् 127 मध्ये आचार्यः इति अस्ति, तद् भागं भवान् करोति वा? पेज् 127 तत्र आचार्यः इति यत् अस्ति, प्रणामाः सर्वे समागताः वा इति, केवलं पठनं तावदेव. अस्तु महोदय. अस्तु, तत्र शुभा भगिनी छात्रः भवति वा? भवति. अस्तु, तदनन्तरं योगेशः, रघुपतिमहोदय, योगेशः अपि, सञ्जयः भवान्. अस्तु, तर्हि तत्र छात्रः बहुवारम् आगच्छति, श्रद्धा इति. अस्तु, शुभा भगिनी भवती एव श्रद्धा अपि, अतः केवलं त्रयम् एव आवश्यकम्. अस्तु, शुभा भगिनी आरम्भं करोति वा?
आचार्य प्रणमाः.
प्रणामाः,
क्षम्यतां, प्रणामाः,
बहुवचनं.
प्रणामाः सर्वे समागताः वा?
आम्.
साधु. पठितान् गीताश्लोकान् सर्वे कण्ठस्थी कृतवन्तः किम्?
क्षम्यतां श्रीमन्, अहं न कृतवान्, किन्तु एकवारं पठितवान्. सञ्जय, अहं पञ्चवारं पठितवान्.
श्रीमन्, अहं पञ्चवारं पठितवती.
समीचीनं. योगेश, त्वमापि वारं वारं पठ, एकवारं पठनेन अर्थबोधः न भवति. यदा वयं त्रिवारं चतुर्वारं वा पठामः तदा सम्यक् अवगन्तुं
शक्नुमः.
अस्तु, इदानीं सर्वेपि द्विवारं श्लोकान् उच्चारयन्तु, तदनन्तरं नूतनान् श्लोकान् पठामः.
श्रीमन्, अद्य आरभ्य वयं वारं वारं पठामः.
अद्य आरभ्य अहं श्लोकम् एकवारं वदामि, भवन्तः तमेव श्लोकं द्विवारं वदन्तु।
तथैव भवतु श्रीमन्।
हा धन्यवादाः, अस्तु समीचीनम्। अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः। तत्र आचार्य, आचार्य इति किम् अस्ति, किं रूपं सम्बोधनम्? आचार्य अकारान्तपदं खलु, आचार्यः रामपदम् इव, रामः इति प्रथमविभक्तौ, किन्तु सम्बोधनरूपं किम् अस्ति?
हे आचार्य।
हा हे आचार्य, हे राम इति, अत्र आचार्य इति सम्बोधन। प्रणामाः, प्रणामाः इति विभक्तिका अपि वचनं किम्? हा प्रथमाविभक्ति बहुवचनं, प्रणामः प्रणामाः इति। सर्वे समागताः वा इति, सर्वे एकस्मिन् स्थले सन्ति वा इति, सर्वे आगच्छन्ति आगतवन्तः वा इति, समागताः वा इति, तदपि समागताः इति, तदपि बहुवचने अस्ति। तत्र समागताः अपि सर्वे, तत्र विशेषणविशेष्यभावः, अब्जेक्टिव् नौन् इति। अस्तु, छात्राः वदन्ति आम् इति, अस्तु। तदनन्तरम् आचार्यः वदति साधु, ह्यः पठितान् गीताश्लोकान् सर्वे कण्ठस्थीकृतवन्तः किम्? तत्र ह्यः गीताश्लोकान् वयं पठितवन्तः, पठितान् गीताश्लोकान्, तत्र गीताश्लोकाः इति प्रथमविभक्ति रूपं, गीताश्लोकान् इति विभक्ति का तत्र? द्वितीयविभक्ति। तत्र क्रियापदं किम् अस्ति? कण्ठस्थीकृतवन्तः। हा तत् कण्ठस्थीकृतवन्तः किम् इति, तत्र कण्ठस्थीकृतम् इति तादृश तत् क्रिया सूचयति, तत् तस्य कर्मपदं द्वितीयविभक्तिरूपम् अस्ति गीताश्लोकान्। गीताश्लोकान् इति पदस्य विशेषणम् अब्जेक्टिव् इति, पठितान् कीदृशश्लोकान्? पठितान् गीताश्लोकान् सर्वे कण्ठस्थीकृतवन्तः किम्? कण्ठस्थीकृतवन्तः इति बहुवचने, एकवचने रूपं किं भवति? कण्ठस्थीकृतवान् इति पुल्लिङ्गे, स्त्रीलिङ्गे हा कण्ठस्थीकृतवती, अपि नपुंसकलिङ्गे किं भवति? हा कृतवत्, कण्ठस्थीकृतवत् इति, हा कण्ठस्थीकृतवन्तः किम् इति। क्षम्यतां श्रीमन्, अहं न कृतवान्, अहं न कण्ठस्थीकृतवान्, किन्तु एकवारं पठितवान्। सः गीताश्लोकान् गृहं गत्वा पुनः एकवारं सः पठितवान् योगेशः। अपि सञ्जयः इदानीं वदति अहं पञ्चवारं पठितवान्। श्रद्धा अपि वदति श्रीमन् अहमपि पञ्चवारं पठितवती इति। तत्र वारम् इति पदस्य बोधः अभवत् वा इदानीं? वारम् इत्युक्ते किं? तत्र प्रादेशिकभाषासु वारम् इति तस्य अर्थः भिन्नः खलु, तत्र सोमवारः इति तादृशप्रयोगः भवति, किन्तु अत्र वारः इत्युक्ते किम्? हा कति, कति इति प्रश्नस्य उत्तरम्, एकवारम् इति। हा अस्तु, तत्र श्रीमन् अहं पञ्चवारं पठितवती। अस्तु, तदनन्तरम् आचार्य वदति समीचीनं, योगेश त्वमपि वारं वारं पठ। वारं वारं पठ इत्युक्ते किं? पुनः पुनः पठतु इति। एकवारं पठनेन अर्थबोधः न भवति। तत्र गीताश्लोकं किं, तत्र कार्टून् इव नास्ति खलु, एकवारं दृष्ट्वा वयं सर्वम् अवगच्छामः इति तादृशं नास्ति खलु। तत्र हा तत्र एकवारं पठनेन अर्थबोधः न भवति। कार्टून् अपि वयं बहुवारं पश्यामः खलु, किन्तु अत्रापि तदेव करणीयम्, एकवारं पठनेन अर्थबोधः न भवति इत्युक्ते वयं तस्य अर्थः कः इति तम् अर्थं सुलभतया न अवगन्तुं शक्नुमः, किन्तु बहुवारं पठामश्चेत् तद् भवति। यदा वयं त्रिवारं चतुर्वारं वा पठामः तदा सम्यक् अवगन्तुं शक्नुमः. किम् अवगन्तुं शक्नुमः? श्लोकस्य अर्थम् अथवा श्लोकानाम् अर्थम् अवगन्तुं शक्नुमः. अस्तु, इदानीं सर्वे अपि द्विवारं श्लोकान् उच्चारयन्तु. तदनन्तरं नूतनान् श्लोकान् पठामः इति. तत्र नूतनान् श्लोकान् इति तत्र सम्बन्धः कः? तत्र
विशेषणविशेष्यभावः.
समीचीनं. हा, तत्र द्वितीयविभक्तिरूपम् अस्ति. प्रथमविभक्तिरूपं किम् अस्ति तत्र नूतनान् श्लोकान् इति?
नूतनः श्लोकः.
हा, एकवचने. बहुवचने नूतनाः
श्लोकाः
इति. हा, समीचीनं. तदनन्तरं नूतनाः श्लोकाः ये सन्ति तान् वयं पठामः. श्रीमन् अद्य आरभ्य वयं वारं वारं पठामः. हा, तत्र आरभ्य इति अत्र दत्तमस्ति, अद्य आरभ्य इति. किन्तु वयं जानीमः आरभ्य इति अस्ति चेत् तत्र कीदृशप्रयोगः भवति? आरभ्य इति पदं वाक्ये अस्ति चेत् वयं किं जानीमः तत्र कीदृशपदं भवति तस्य पूर्वम्? आरभ्य इति पदस्य पूर्वपदं तस्य अद्य श्वः इति भवति. किन्तु अन्यत् किं भवितुम् अर्हति तत्र आरभ्य अस्ति चेत्? तत्र पेज् 123 पश्यतु. 123 अधोभागे, बोटम्, अट् द बोटम् अधोभागे किमस्ति तत्र? उषा भगिनी पठति वा? अधोभागे किम् अस्ति अवधेयम् इति?
आरभ्य बहिः रक्षति, तदेव न महोदय?
हा हा, सत्यं सत्यं. हा,
परं भयम् इत्येतेषां प्रयोगे पञ्चमी विभक्तिः भवति.
हा, पञ्चमी विभक्ति अपेक्षितम् अस्ति. आरभ्य इति पदम् अस्ति चेत् तत्र पञ्चविभक्ति अपेक्षितमस्ति. अद्य इति तु अव्ययमस्ति इति कृत्वा तस्य विभक्तिरूपं तदेव भवति. अतः अद्य आरभ्य वयं वारं वारं पठामः. अद्य आरभ्य अहं श्लोकम् एकवारं वदामि, भवन्तः तमेव श्लोकं द्विवारं वदतु, तथैव भवतु श्रीमान् इति. अस्तु, सर्वे अवगच्छन्ति इति मन्ये तत्र वारं द्विवारं पञ्चवारम् इति चतुर्वारम् इति तादृश प्रयोगाः भवन्ति तत्र. अस्तु, तत्र शोभा भगिनी प्रथम अभ्यासः करोति वा तत्र?
महोदय, यदि पाठशीर्षिकः अस्ति कतिवारं पठानि, पठामि वा पठानि वा महोदय? तत्र लोट्लकार किमर्थम् अस्ति?
कतिवारं पठानि पृच्छति
इति प्रश्नः भवति.
पठामि इति
सम्यक् कतिवारं पठितवती? कतिवारं पठितवती?
ओ, कतिवारं
अथवा कतिवारं पठति तत्र? कतिवारं पठति, कतिवारं पठामि इति तत्र पर्मिशन् इति अर्थे अस्ति. कतिवारं पठामि इति अहं स्वयं पृच्छामि. अस्तु, कतिवारम् अहं पठामि?
अस्तु महोदय, तत्र उत्तमपुरुष एव अस्ति. अहं कतिवारं पठामि प्रयोगः सम्यक् अस्ति वा?
सम्यक् अस्ति, तदपि सम्यक् अस्ति. तत्र अन्यान् पृच्छति, किन्तु स्वयं पृच्छति चेत् अहं कतिवारं पठामि इति चिन्तनं मम मनसि भवति.
ओ, अस्तु अस्तु,
खलु?
आं महोदय.
अस्तु, शोभा भगिनी.
आं महोदय, कोष्टके दत्तानां शब्दानाम् उपयोगेन यथोदाहरणं वाक्यानि रचयत. उदाहरणं, दीपावलीवर्षे एकवारं भवति. अत्र गुरुः छात्रान् तत्र एकवारं दत्तमस्ति पाठयति. गुरुः छात्रान् एकवारं पाठयति एव.
अस्तु, समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनी अग्रिमम्.
आम् आम् महोदय, द्वितीयपदमस्ति भवान् बहुवारं पठिष्यति.
तावदेव बहुवारं बहुवारं पठिष्यति पठिष्यति इति सत्यम् अस्तु समीचीनम् उमा मीनाक्षी भगिनी
ओके इदानीं भवान् ओ तत्तु समाप्तं वर्षे कदा वयं नवरात्रोत्सवम् आचरामः
इति प्रश्नः कदा वयं
नवरात्रोत्सवम्
आचरामः इति समीचीनं
यद् दत्तमस्ति तदेव लेखनीयं
तत्र किमपि नास्ति सत्यं भगिनी किन्तु एकवारं
कार्यं किमपि नास्ति
किन्तु एकवारं तस्य श्रवणं भवतु इति तावदेव खलु अस्तु अस्तु उषा भगिनी अग्रे
शिशुः दिने बहुवारं दुग्धं पिबति
शिशुः दिने वारं वारम् इति खलु
बहुवारम् अपि वदामि
किन्तु किं दत्तमस्ति तत्र मम पुस्तके वारं वारम् इति अस्ति भवत्याः पुस्तके
वारं वारम् अपि अस्ति बहुवारम् अपि अस्ति महोदय
किन्तु किं दत्तमस्ति तत्र
वारं वारं दत्तम् अस्ति पार्श्वे
अस्तु
शिशुः दिने वारं वारं दुग्धं पिबति
हा अस्तु तत्र किं चिन्तनं बहुवारम् अपि वारं वारं समानार्थकं
रक्तवर्णे दत्तम् अस्ति किमर्थं महोदय
तत्र किमपि न तत्र किमपि नास्ति भगिनि केवलं तत्र भेदं प्रकटितं तत्र एकं पदम् अस्ति अन्यत् पदम् अस्ति इति तावदेव
समानपदम् अस्ति न महोदय
किं चिन्तनम्
अहं चिन्तयामि समानपदम् इत्युक्ते बहुवारम् अपि वारं वारं
रिपीटेड्लि वारं
भिन्नः अस्ति
तत्र सूक्ष्मभेदः अस्ति तत्र तत्र किं समान अपि अस्ति किन्तु किञ्चित् भेद सूक्ष्मभेदः अपि अस्ति तत्र अगेन् अण्ड् अगेन् अपि मेनि टैम्स् तत्र भेदः अस्ति किञ्चित्
बार् बार् बहुत् बार्
तत्र तत्र भेदः अस्ति बहु इति न सूक्ष्मभेदः अस्ति तत्र अस्तु अग्रे शुभा भगिनि
अहम् अद्य आरभ्य सत्यं वदामि
इति समीचीनं तत्र एकः अंशः अत्र वक्तव्यः अस्ति तत्र अद्य आरभ्य इति तत्र अद्य आरभ्य इति दृष्टवन्तः किन्तु तत्र यदि वर्गः अस्ति तदनन्तरम् आरभ्य इति वक्तुम् इच्छामः रूपं किं भवति वर्गात् आरभ्य इति भवति समीचीनं वर्गात् आरभ्य अहं इदानीं तत्र अद्यतनवर्गः इति अस्ति अद्यतनवर्गः तदनन्तरम् आरभ्य इति वक्तुम् इच्छामः तदा किं रूपं किं भवति अद्यतन अपि एकं पदं तदनन्तरं वर्गः इति द्वितीयपदम्
अद्यतनवर्गात् एव न महोदय
तत्र वर्गात् इति वर्गः इति अस्ति अद्यतनवर्गः इति पदद्वयम् अस्ति तयोः मध्ये कः सम्बन्धः
विशेषविशेषणं
वर्गात् पञ्चमी विभक्तिः
वर्गः वर्गः इति विशेष्यं नामपदं तस्य अड्जेक्टिव् अस्ति अद्यतन इति विशेषणं तत्र नियमः कः यदि विशेष्यस्य विभक्ति भवति तत्र विशेषणस्य अपि विभक्ति भवति खलु तत्र अद्यतन इति मया गतसप्ताहे चिन्तितं तद् अव्ययम् इति किन्तु किं दिनद्वयात् पूर्वमेव मया ज्ञातं यत् अद्यतन इति अव्ययं नास्ति किन्तु तत्र तद् नामपदमिव तत् विशेषणं भवति तत्र पुल्लिङ्गे अद्यतन अपि स्त्रीलिङ्गे अद्यतना अपि नपुंसकलिङ्गे अद्यतनम् इति तस्य रूपं भवति इति तत्र अद्यतनवर्गः इति पुल्लिङ्गरूपं तस्य तदनन्तरम् आरभ्य इति वक्तुम् इच्छामः चेत् अद्यतनात् वर्गात् आरभ्य कीदृशवाक्यम् अद्यतनात् वर्गात् आरभ्य अहं संस्कृतेन एव वदामि इति अस्तु तादृश अथवा अग्रिमसप्ताहः इति स्वीकुर्मः तत्र किं भवति तदनन्तरम् आरभ्य इति वक्तुम् इच्छामः चेत् अग्रिमात् सप्ताहात् आरभ्य अहं संस्कृतं पाठयामि अस्तु तादृश अद्यतनी वा ओ धन्यवादः महोदय अद्यतना इति चिन्तितवान् अद्य समीचीनं धन्यवादः महोदय अद्यतनी अस्तु धन्यवादः अतः अद्यतनी तिथिः इति अस्ति तदनन्तरम् आरभ्य इति वक्तुम् इच्छामः चेत् किं भवति अद्यतनी तिथिः तिथिः अद्यतनी इकारान्तपदम् अद्यतनी इति तस्य पञ्चमी रूपम्
अद्यतनेः
न न अद्यतनी इति स्त्रीलिङ्गम् अस्ति भगिनि अद्यतन्याः तिथ्याः आरभ्य अथवा तिथिः इति तु मतिशब्दवत् अस्ति खलु अतः तत्र रूपद्वयमस्ति तिथेः अथवा तिथ्याः अतः अद्यतन्याः तिथ्याः आरभ्य इति तादृशं भवति
परन्तु सर्वे समासः एव कुर्वन्ति
अस्तु सत्यं महोदय सत्यं सत्यं किन्तु केवलं तत्र अभ्यासं भवतु इति तत्र कतिवारं कार्यं कृतवान् पञ्चवारं कार्यं कृतवान् इति तादृशमपि दृष्टवन्तः तत्र एकः अंशः अस्ति तद् वक्तव्यमस्ति तत्र भारम् इति टैम्स् इति वयं चिन्तित् इति जानीमः किन्तु तत्र नेक्स्ट् टैम् इति तद् वयं चिन्तयामः अग्रिमवारम् इति किन्तु तद् साधु नास्ति तत्र अग्रिमवारम् अहम् एतत् करोमि इति तादृश प्रयोगः दोषसहितवाक्यम् अस्ति दोषरहितवाक्यम् अग्रिमपर्याये इति अथवा अग्रिमपर्यायः इति तादृश वक्तव्यम् इति भविष्यत्काले किञ्चित् तत्र नूतन अंशः अत्र अस्ति तत्र अग्रिमवारम् इति न वक्तव्यम् इति अस्तु अस्तु तर्हि इदानीं
किं महोदय एकः प्रश्नः तत्र वारं वारम् इति भूतकालं भवति अथवा
तत्र कालस्य किमपि नास्ति खलु
पञ्चवारं
न भगिनि तत्र अग्रिमे सप्ताहे वयम् एतत् वारं वारं कुर्मः
तत् समीचीनं कुर्मः इति द्वितीयपदं भवान् बहुवारं पठिष्यति तत्र पठिष्यति इति भविष्यत्कालं भवति न महोदय तत्र अर्थः भिन्नः भवति अहं चिन्तयामि भवान् बहुवारं पठिष्यति बहुवारं
सत्यं सत्यं भगिनि किन्तु बहुवारं पठति अपि भवति खलु तत्र
पठति
भवति तत्र बहुवारम् अस्ति चेत् तत्र किं किं कोऽपि नियमः नास्ति भविष्यत्कालरूपमेव भवति इति तादृश कोऽपि नियमः नास्ति अतः बहुवारं वा पञ्चवारं वा एकवारं वा तत्र कालस्य विषये कोऽपि नियमः नास्ति भूतकाले अपि तस्य प्रयोगः भवति अपि भविष्यत्काले अपि वर्तमानकाले सर्वत्र भवति भगिनि
अव्ययः अस्ति वा महोदय
किम्
एकवारं वारं वारं
हा तत् चिन्तनीयं रघुपतिमहोदय जानाति वा तत्र द्रष्टव्यं भगिनि किन्तु हा तत्र समस्तपदम् इति अस्ति तत्र द्रष्टव्यमस्ति भगिनि किन्तु उत्तमप्रश्नः एव अस्तु भगिनि अस्तु धन्यवादः तत्र कोऽपि वारम् इति भवति चेदपि अव्ययमेव वा अस्तु अस्तु धन्यवादः समीचीनं हा समीचीनं भगिनि अस्तु इदानीं तत्र अद्य आरभ्य अपि वारम् इति तत् लघुविषयः आसीत् तत् कृतवन्तः इदानीम् अग्रे गच्छामः तत्र अस्माकं मुख्यविषयः अद्यतनमुख्यविषयः अस्ति त्वान्तरूपम् इति अतः अग्रिमे पुटे यदस्ति तद् तद् अभ्यासपुस्तके अपि वयं कृतवन्तः तत्र शीघ्रं मन्दं शनैः उच्चैः सम्यक् तत् सर्वं कृतवन्तः पूर्वमेव इदानीं त्वान्तरूपं तत्वा कृत्वा गत्वा इति तद् विषयस्य आरम्भं कुर्मः इदानीं तत्र त्वा प्रत्ययं प्रत्ययान्तानि तत्र तत्रापि सम्भाषणम् अस्ति तत्र इदानीं नूतनजनाः अपेक्षिताः अर्णा भगिनी नमस्कारः गीताञ्जलि भगिनी नमस्कारः नमस्कारः हा चिन्ता मास्तु भगिनि अस्तु तत्र हा तत्र कर्णः दुर्योधनः इति अरुणा भगिनी गीताञ्जलि भगिनी कुर्वन्ति वा
आं महोदय
अस्तु
अहं पठामि वा
अस्तु भगिनि
त्यक्त्वो तिष्ठ परन्तप त्वा प्रत्ययानि उच्चैः पठत अवगच्छत च कर्णः दुर्योधन अहं कर्णः
भगिनि
कुत्र महोदय
पेज् 129 पेज् 129 भवती दुर्योधनः इदानीं
दुर्योधनः कर्ण वद किमर्थं खिन्नः
जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति
चिन्तां त्यक्त्वा मया सह वस राज्यं दत्त्वा त्वां महाराजं करोमि
भवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति उद्धृतवान् अस्ति अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि
त्वं मम मित्रम् एव अत्र स्थित्वा प्रतिकारं कुरु
एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि
हा इति समीचीनमस्ति हा तत्र पङ्क्तिशः पश्यामः तत्र किम् अस्ति हा तत्र दुर्योधनः अपि कर्णः तयोः मध्ये सम्भाषणं कर्णः वदति दुर्योधन अहं कर्णः अपि दुर्योधनः कर्णः वद किमर्थं खिन्नः हा तत्र किम् इदानीं नूतन अंशः आगच्छति तत्र दृष्ट्वा जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति अस्माकं मूलविषयः अद्यतनमूलविषयः त्वान्तरूपं दृष्ट्वा इति तत्र पश्यति इति क्रियापदमस्ति तस्य त्वान्तरूपम् इति वदामः त्वान्तरूपम् अस्ति दृष्ट्वा तद् कृत्वा अहं वर्गम् आगतवान् अन्यत् कार्यं कृत्वा अहं वर्गम् आगतवान् तत्र अहं कार्यं करोमि अन्यत् कार्यं करोमि तदनन्तरं वर्गम् आगच्छामि तत्र द्वयोः मेलनं कृत्वा अहम् अन्यत् कार्यं कृत्वा वर्गम् आगच्छामि अतः तत्र जनाः मां पश्यन्ति तदनन्तरम् अयं सूतपुत्रः इति परिहसन्ति तत्र वाक्यद्वयं भवति किन्तु मेलनं कृत्वा जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. दुर्योधनः वदति चिन्तां त्यक्त्वा मां सह वस. त्यक्त्वा इति तत्र क्रियापदं किम् अस्ति? त्यजति. हा, राज्यं दत्त्वा त्वां महाराजं करोमि. दत्त्वा इति तत्र क्रियापदं किम्? ददाति. भवान् आश्रयं कल्पयित्वा, तत्र कल्पयित्वा अपि त्वान्तरूपमेव अस्ति, कल्पयित्वा माम् उद्धृतवान् अस्ति. उद्धृतवान् इत्युक्ते किम्?
लिफ्टेड्.
हा, उद्धारम्, उद्धारं कृतवान्, मम उद्धारं कृतवान्, माम् उद्धृतवान् अस्ति. अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि. तत्र मुक्तः इति, तत्र मुक्तः भवामि, तत्र पञ्चमी, तत्रापि पञ्चमी विभक्ति भवति. एतस्मात् ऋणात् मुक्तः भवामि. त्वं मम मित्रम् एव अत्र स्थित्वा प्रतिकारं कुरु. प्रतिकारम् इत्युक्ते किम्? अत्र स्थित्वा प्रतिकारं कुरु. रिटालियेशन् अस्ति, सहायमपि अस्ति. प्रतिकारं सहायमपि भवितुम् अर्हति इति मन्ये. सहायमपि इति भवति, भवितुम् अर्हति इति मन्ये. एतं किं किं भगिनि? रिवेञ्ज् अपि अस्ति, किन्तु
हेल्प् अपि अस्ति महोदय.
हा, अत्र तत्र प्रत्येकस्य पदस्य अनेकाः अर्थाः सन्ति खलु, किन्तु सन्दर्भानुसारं कः अर्थः सम्यक् इति दृष्ट्वा एव वक्तव्यम्. अत्र प्रायशः साहाय्यम् इति एव सम्यक् इति मन्ये. हा, उपकारम् इति तादृशं. हा, एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि इति. प्रतिकारम् इत्युक्ते सहकारम् इति, सहायम् इति तादृश अर्थः एव भवति खलु. हा, अस्तु. इदानीं तत्र एकः नूतन अंशः अत्र अस्ति, तत्र अयम् इति. अयम् इत्युक्ते किम्? हा, एषः इति, एषः इति पर्यायपदं. हा, तत्र हा, एषः इति, हा, पुल्लिङ्गपदम्. एषः इति तत्र एषः पदं, पदस्य प्रातिपदिकं किम्? एतत्. एतत्, हा, एषा इति अपि, एतत् स्त्रीलिङ्गे अपि, एतत् इति अपि नपुंसकलिङ्गे. हा, किन्तु इदानीम् अयम् इति पदं, तस्य प्रातिपदिकम् अस्ति इदम् इति. इदं तत्र पुटसङ्ख्या किं, तत्र गीतसोपने एव दत्तमस्ति, पुटसङ्ख्या 200 तत्र कोष्टकम् अस्ति. तत्र पश्यन्तु, तत्र पुटसङ्ख्या 200 मध्ये मकारान्तपुल्लिङ्ग इदं शब्दः इति. तत्र पुल्लिङ्गे अयम्, इमौ, इमे अपि
ध्वनि अस्ति महोदय.
हा, अस्तु अस्तु अस्तु, पश्यामि तत्र कुतः ध्वनि. हा, इदानीं नास्ति इति मन्ये. अस्तु अस्तु महोदय, अस्तु. हा, तत्र पुल्लिङ्गे अयम्, इमौ, इमे. स्त्रीलिङ्गे रूपं किम् अस्ति?
इमम्, इमौ,
इयम्, इयम्,
इयम्, इमे, इमाः.
हा, इयम्, इमे, इमाः इति. हा, तद् रूपं भवति. हा, अस्तु. अपि नपुंसकलिङ्गे इदम्, इमे, इमानि. तदनन्तरम् अपि, हा, इदम्, इमे, इमानि इति. हा, अस्तु अस्तु. हा, तत्र
अहं कोश पुस्तके पठामि. प्रतीकार, प्रतिक्रिया, जिगांसा, प्रतिहिंसा, प्रतिकृति, प्रतिवैर, सिनानिम्.
अस्तु भगिनि,
पर्यायपद,
पर्यायपदानि. एतत् कुत्र पठति भगिनि, कुत्र पठितवती?
चिन्नानिं स्पोकन् संस्कृत.
अस्तु अस्तु, तत्र एव. अस्तु भगिनि, अस्तु, धन्यवादः. हा, धन्यवादः भगिनि, समीचीनं. हा, अस्तु, धन्यवादः भगिनि, अस्तु. हा, अयम् इति तत्र इदं पदस्य रूपम् अयम् इति, अयम् इत्युक्ते एषः इति. अपि अन्यत् तत्र अस्ति, तत्र मित्रम् इति पदं, त्वं मम मित्रं, तत्र मित्रं, तत्र किञ्चित् वक्तव्यमस्ति. तत्र मित्रम् इति पदस्य, तत्र मित्रम् इति पदं तस्य लिङ्गं किं? नपुंसकलिङ्गपदं. हा, किन्तु तत्र एतत् वयं कर्तुम्, एतादृशवाक्यं वयं रचितुं शक्नुमः, एषः मम मित्रम् इति, रामः मम मित्रम्. तत्र तत्र रामः मम मित्रम् अस्ति इति वाक्यं भवति. तत्र अस्ति इति क्रियापदं, रामः इति कर्तृपदम्. अतः मित्रम् इति किं भवति वाक्ये? रामः मम मित्रम् अस्ति. तत्र अस्ति इति अस्ति, अस्ति तु तत्र कर्मपदमेव नास्ति.
हा,
तत्र मित्रम् अपि, मित्रं, मम मित्रं भवति विशेषणं रामपदस्य. कीदृशः रामः? मम मित्रं रामः. तत्र रामः तु विशेषणं भवति चेत् लिङ्गसमानं भवति, भवेत् खलु? रामः पुल्लिङ्गे अस्ति, तत्र मित्रमिति नपुंसकलिङ्गे अस्ति. किन्तु मित्रमिति नियतलिङ्गशब्दः इति वदामः, तस्य लिङ्गपरिवर्तनं न भवति. तत्र मित्रम् इति एव रूपं भवति, विशेषणं भवति चेदपि तत्र. हा, अतः सीता मम मित्रम् इति वा अपि समीचीनं, रामः मम मित्रम् अपि समीचीनं. तत्र अतः तत्र त्वं मम मित्रम् इति, तत्र कर्णः मम मित्रम्. किन्तु कर्णः पुल्लिङ्गे अस्ति, मित्रं नपुंसकलिङ्गे अस्ति, किन्तु शुद्धप्रयोगः अस्ति तत्र, दोषरहितप्रयोगः तत् अस्तु.
सः मम मित्रम् इति सम्यक् एव वा?
सः मम मित्रं सम्यक् एव.
तत् मम मित्रं दोषः वा?
न न, तदपि समीचीनमेव. तत्र मित्रम् इति, तत् मम मित्रमिति न वक्तव्यं. तत्र कोऽपि पुरुषः अस्ति चेत् सः इति एव वक्तव्यं, किन्तु सः मम मित्रम्. अपि कापि महिला अस्ति, सा मम मित्रं, तदपि सम्यक्. अतः रामः मम मित्रं, सीता अपि मम मित्रम् इति वक्तुं शक्नुमः. तत्र तदेव लिङ्गं, तस्य परिवर्तनं न भवति.
अतः मित्रं नपुंसकलिङ्गे एव परिवर्तनम्
एव भवति, किन्तु तस्य प्रयोगः विशेषणरूपेण भवति, किन्तु तस्य रूपपरिवर्तनं किमपि न भवति. सः मम मित्रम् इति वाक्यं शुद्धम् इति.
सा मम मित्रमपि,
सा मम मित्रमपि शुद्धं शुद्धं शुद्धम् एव. अस्तु अस्तु, इदानीं तत्र मूलविषयः अस्ति त्वान्तरूपमिति, गत्वा इति. तत्र अभ्यासपुस्तके अपि एतादृशं रूपं दृष्टवन्तः, किन्तु अत्र किञ्चित् इतोपि दत्तम् अस्ति. अस्तु, तर्हि तत्र
मुक्तः शब्दः यदा पञ्चमी विभक्त्या अस्ति, प्रथमा किम् एकवचनरूपं?
मुक्तः इति पञ्चमी विभक्तिरूपम् इति न उक्तवान् अहम्. मुक्तः इति, मुक्तः तु प्रथमा विभक्तिरूपमेव अस्ति भगिनि, किन्तु तस्य प्रयोगः मुक्तः इत्युक्ते, मुक्तः इति कोऽपि वदति चेत् कस्मात् मुक्तः इति प्रश्नः भवति खलु. अतः तस्य पूर्वपदं पञ्चमीविभक्तिरूपं भवति इति.
ओ एवं वा, ओके.
एतस्मात् ऋणात् अत्र कर्णः वदति खलु.
परन्तु तत्र मुक्तः भवामि लिखितम् अस्ति, तत्र तु अहम् अपि अस्ति, तो अहं भवामि, अहं मुक्तः भवामि
इति वाक्यमस्ति. समीचीनं भगिनि. हा अस्तु, तत् स्वीकुर्मः. तत्र अहं भवामि, भवामि इति क्रियापदम्, अहम् इति कर्तृपदम्. भवामि इति कर्मक, न भवामि
भवति न
भवामि इति, भवति इति क्रियापदस्य सकर्मकक्रियापदं वा?
सकर्मक नास्ति.
हा, अतः कर्मपदं नास्ति. तत्र
मुक्तः किं कार्यं करोति? तत्र
मुक्तः भवति विशेषणं,
विशेषणं.
हा, तत् अहं पदस्य विशेषणम् अस्ति कीदृश अहं मुक्तः अहं कीदृश रामः उत्तमः रामः उत्तमः रामः कीदृश रामः उत्तमः रामः कीदृशः अहं मुक्तः अहम् किन्तु रिजल्ट् एव अस्ति किन्तु तत्र अस्मिन् वाक्ये तत् किम् अस्ति मुक्तः इति विशेषणं भवति तस्मात् मुक्तः ऋणात् मुक्तः एतस्मात् ऋणात् मुक्तः अतः तस्य पञ्चमीविभक्तिरूपम् समीचीनं वा भगिनि
अवगतवती किञ्चित्
अस्तु 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 मुक्तः इति तत्र
अन्य किमपि क्रियापदम् उपयोगं कुर्मः चेत् यत्र कर्मपदस्य उपयोगं भवितुम् अर्हति
तदा किन्तु भगिनि तत्र रक्षति इति तादृशं प्रयोगः वयं दृष्टवन्तः खलु तादृश एव अत्रापि रक्षति कस्मात् रक्षति इति कस्मात् मुक्तः कस्मात् मुक्तिः भवति अथवा मुक्तः भवामि इति तादृश अर्थः किन्तु किञ्चित् भेदः अस्ति तत्र
लिङ्गत्रयमर्हति
विशेषणम् अस्ति खलु
विशेषणम्
अस्ति अतः मुक्तः मुक्ता इति प्रायशः स्त्रीलिङ्गे मुक्तम् इति नपुंसकलिङ्गे विशेषणं भवति अहं मुक्तः तत्र कर्णः वदति इति कृत्वा अहं मुक्तः यदि महिला वदति चेत् अहं मुक्ता इति भवति
तदा मुक्तिः शब्दस्य किं प्रयोजनं
मुक्तिः भिन्नम् अस्ति मुक्तिः भिन्नम् अस्ति अत्र मुक्तः इति सः मुक्तिं प्राप्तवान् इति यः मुक्तिः प्राप्तवान् मुक्तिं प्राप्तवान् सः मुक्तः
ओके
अत्र ऋणपदमस्ति खलु
महोदय श्रीलिङ्गपदमस्ति
ऋणमुक्तः
ऋणमुक्तः अस्तु ऋणमुक्तः तत्र एतदेव ऋणात् मुक्तः इति तत्र समासः भवति ऋणमुक्तः ऋणात् मुक्तः इति
अत्र का प्रत्यय तत्र तिन् प्रत्ययः अस्ति मुक्तिः इति श्रीलिङ्गे सर्वदा
मुक्तिः भिन्नम् अस्ति मुक्तः भिन्नम् अस्ति यत् प्राप्नुमः यः प्राप्नुमः अथवा यं प्राप्नुमः तं तस्य नाम अस्ति मुक्तिः किन्तु यः मुक्तिं प्राप्नोति अथवा या मुक्तिं प्राप्नोति सः मुक्तः अथवा सा मुक्ता इति
तदा तु क्रियापदमपि भवितव्यं न
भवामि इति अस्ति
न न न मुक्तिशब्दस्य क्रियापदम् अस्ति वा
मुक्तिः इति मुक्तिः इति नामपदं भवति मुक्तिः स्त्रीलिङ्गनामपदं
स्त्रीलिङ्गं पुल्लिङ्गम् एतत् सर्वम् अस्ति चेत् क्रियापदमपि
केवलनामपदम् अस्तु न न भगिनि तत्र रामः इति अस्ति न रामः इति अस्ति ओ अस्तु अस्तु इदानीम् अहं गच्छामि तत्र मुक्तः इति तत्र मुक्तः इति तस्य तस्य मूलक्रियापदं किम् इति तत्र मुच् धातुः तत्र
मुच् धातु मुञ्चति
अस्तु अस्तु तदेव प्रश्न सः एव प्रश्नः खलु भगिनि मम भगिनि अस्तु 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 सत्यं सत्यं इदानीम् अवगतं
पठितः एवं
सत्यं सत्यं सत्यं
तत्र तु क्रियापदम् अस्ति
अस्ति अस्ति अस्ति अस्ति
अत्र अहं न जानामि
क्रियाविशेषणमस्ति
उषा भगिनी उक्तवती इदानीमेव
मुच् धातु मुञ्चति धातु अस्ति मुच् धातु भगिनी
ओके
मुञ्चति
मुञ्चति वा
मुञ्चति महोदय
मुक्षणे हा अस्तु अस्तु अस्तु
मोक्षणे
मुक्षणे मुक्षणे सत्यं सत्यं मुच् धातुः धातुः अस्ति मुच् भगिनि अस्तु समीचीनम् अस्तु अस्तु तर्हि इदानीं तत्र किं वंशीसुधा भगिनि तत्र एकम् एकं पठति वा तत्र क्रियापदानि
आं महोदय एतानि रूपाणि उच्चैः पठत क्रियापदानि त्वान्तानि पठति पठित्वा भ्रमति भ्रमित्वा क्रीडति क्रीडित्वा धावति धावित्वा चलति चलित्वा वदति उदित्वा त्यजति त्यक्त्वा विन्दति विन्दित्वा तत्र अग्रे पठामि लभते लब्ध्वा भवति भूत्वा वर्तते वर्तित्वा वर्धते वर्धित्वा शेते शयित्वा संस्त्रे संस्रते संसृत्वा क्रियते मृत्वा जायते जनित्वा
हा समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे हा
किम् वदति उदित्वा भवति किमर्थं वर्तते वर्तित्वा एव सम्प्रसारण किं न भवति
हा पश्यामि पश्यामः भगिनि एकनिमिषः एकनिमिषः प्रथमतया तत्र
वदति उदित्वा सम्प्रसारण भवति वदतु परन्तु वर्तते वर्तित्वा एव अस्ति
अस्तु प्रश्नः कः
किमर्थं वा परिणामः न भवति उकारः किं न आगच्छति
ओ अस्तु 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 अतः ओ अस्तु अस्तु भवत्याः प्रश्नः तदस्ति अस्तु हा तत्र वद् धातोः तत्र उकारः भवति अपि वर्तते इति तस्मिन् किमर्थं हा तत्र बहु किमपि करणीयमस्ति भगिनि हा इदानीं हा इदानीम् अस्माकं प्रथमपरिचयरूपेण एतद् वयं कुर्मः तत्र केवलं संस्कारार्थं हा तद् शृणुमः तस्य रूपं मनसि भवेत् इति तस्य व्याकरणकार्यं बहु किमपि अस्ति तद् इदानीं मास्तु किन्तु एकः अंशः एव स्वीकुर्मः अद्य तत्र सर्वदा तत्र पठति तत्र तत्र पश्यति दृष्ट्वा इति भवति दहति दग्ध्वा इति भवति पृच्छति पृष्ट्वा इति भवति कर्षति कृष्ट्वा इति भवति किन्तु कुत्रचित् इकारः आगच्छति तत्र पश्यतु पठति पठित्वा भ्रमति भ्रमित्वा क्रीडति क्रीडित्वा धावति धावित्वा इति चलति चलित्वा इति तत्र ईकारः मध्ये आगच्छति तत्र एतस्य नाम अस्ति ईकारस्य नाम अस्ति इडागमः इति तत्र धातोः यदि एतादृशरूपं भवति ईडागमः भवति चेत् तत्र धातोः वयं वदामः तत्र एतद् धातु सेट् इति स योगः इट् सेट् इति सेट् धातुः अपि यदि इकारः न भवति तत्र पश्यति इति तस्य त्वान्तरूपं किं भवति दृष्ट्वा इति तत्र इकारः अस्ति वा मध्ये नास्ति तत्र अनिट् इति वदामः तत्र सेट् सेट् इति यदि ईकारः मध्ये आगच्छति चेत् पठति इति सेट् अस्ति भ्रमति इति सेट् अस्ति चलति इति सेट् अस्ति किन्तु पचति अथवा ध्यायति ध्यात्वा ददाति दत्त्वा तत्र सर्वत्र तत्र अनिट् इति वदामः तत्र ईकारः नागच्छति ईडागमः न भवति इति अस्तु हा किन्तु
महोदय तत्र उदित्वा यत्र अस्ति तत्र उक्त्वा अपि
सत्यं 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 तत्र किम् अस्ति तत्र
उदित्वा अधिकम् उपयोगं
न भगिनि समीचीनप्रश्नः तत्र किम् अस्ति तत्र धातुद्वयम् अस्ति तत्र वच् धातुः अस्ति अपि वद् धातुः अस्ति
महोदय अग्रे अस्ति महोदय ब्रूते उक्त्वा वदति उदित्वा महोदय
तत्र ब्रूते अपि तस्य त्वान्तरूपम् उक्त्वा इति अस्ति किन्तु किन्तु तत्र किम् अस्ति तत्र एतद् समीचीनप्रश्नः एव अस्ति तत्र
महोदय वक्ति वक्ति उक्त्वा भवति खलु
तत्र धातुद्वयं सत्यं भगिनि तत्र बद्ध धातुः इति अस्ति अपि वच् धातुः इति अस्ति
वक्ति उक्त्वा
वक्ति इति उक्त्वा भवति अपि वदति इति उदित्वा भवति सत्यं भगिनि किन्तु तत्र किं तत्र बहुवारम् एकस्य क्रियापदं वयम् अन्यस्य रूपे वयं स्वीकुर्मः तत्र उक्तवान् इति भवति खलु सः वदति इदानीं तस्य भूतकालरूपं किम् इति वयं चिन्तयामः वदामः सः उक्तवान् अतः उक्त्वा इति तु किं वच् धातोः रूपम् अस्ति किन्तु वदति इति वद् धातोः आगतम् अस्ति अतः तत्र सामान्यरूपेण एतद् वयं भेदः न कुर्मः भेदं न कुर्मः वच् धातोः रूपं वद् धातोः स्थाने स्वीकुर्मः तद् बहुत्र भवति अतः वद् धातोः वदति इति रूपं तद्भवति किं तत्र उदित्वा किन्तु वयम् उक्तवान् इति स्वीकुर्मः उक्त्वा इति स्वीकुर्मः अपि वच् धातोः वक्ति इति अस्ति किन्तु वयं कोऽपि वदति इति एव वदामः वयं कुत्रापि मया कदापि न श्रुतं सः वक्ति इति सः वक्ति ते वक्तः तौ वक्तः ते वचन्ति इति कुत्रापि वयं न श्रुतवन्तः किन्तु सः उवाच इति श्रुतं खलु अथवा देवा ऊचुः देवाः ऊचुः इति वयं शृण्मः अतः तत्र वच् धातुः वद् धातुः बहुत्र क्लेशः भवति अतः तत्र मम मनसि वच् अपि वद् एकः एव धातुः इति मम मनसि अस्ति तत्र भेदः कर्तुं शक्नुमः किञ्चित् क्लेशः
अस्ति वच्मि इति उपयोगः बहुवारं जनाः कुर्वन्ति
वच्मि इति सत्यं महोदय सत्यं अतः उत्तमपुरुषे भवति उत्तमपुरुषे भवति सत्यं महोदय
परन्तु यदा वच् धातोः उक्त्वा अस्ति ब्रूते तस्यापि उक्त्वा एव
भवति सत्यं भगिनि अतः तत्र त्वान्तरूपं तत्र क्रियापदद्वयस्य त्वान्तरूपं समानं भवितुम् अर्हति
ब्रूते वदति वच् किम् अस्ति वक्ति सर्वत्र अर्थं तु समानमेव न
अतः तत्र अत्र क्लेशः अस्ति किन्तु व्याकरणरीत्या क्लेशः अस्ति किन्तु साधारणसम्भाषणे वयं भेदः न कुर्मः अस्तु अस्तु तर्हि इदानीं तत्र किं तत्र जायते इति जनित्वा इति तावत् पठितवन्तः इदानीम् अग्रे पश्यामः तत्र उमा मीनाक्षी भगिनी भवती एव पठति वा
सुपर् ग्रेट्
पश्यति इति द्वितीय
पश्यति दृष्ट्वा दहति दग्ध्वा पृच्छति पृष्ट्वा कर्षति कृष्ट्वा हरति हृत्वा पचति पक्त्वा ध्यायति ध्यात्वा ददाति दत्त्वा शृणोति श्रुत्वा जहाति हित्वा ईक्षते ईक्षित्वा रमते रमित्वा भुङ्क्ते भुक्त्वा मोदते मोदित्वा ब्रूते उक्त्वा चेष्टते चेष्टित्वा
इति. अस्तु, समीचीनं भगिनी, धन्यवादः. तत्र सर्वे क्रियापदानाम् अर्थं जानन्ति इति मन्ये, खलु? तत्र
केवलं कर्षति कृष्ट्वा तत्र किञ्चित् क्लेशम् अस्ति.
कर्षति इति कोऽपि वदति वा? कर्षति इत्युक्ते किम् इति?
कर्षति अपि अस्ति, कर्षयति अपि अहं दृष्टवती.
कर्षयति तु तत्र कर्षति इति कोऽपि वदति वा? कर्षति इति अर्थः कः?
गुणकार्यं भवति चेत्
कृष्
धातोः गुणकार्य भूत्वा कर्षति अरिति भवति.
तत्र अर्थः कः कर्षति इति क्रियापदस्य? कृषकः कर्षति. अपि तत्र जहाति इति त्यजति इति मन्ये भगिनि. त्यजति इति मन्ये. ईक्षते तु अवलोकते इति, पश्यति इति अर्थे. रमते चेष्टते. चेष्टते इति किम्? तादृश भवति इति मन्ये. द्रष्टव्यमस्ति. कोऽपि वदति वा तस्य अर्थः कः इति? चेष्टते इति
इच्छा
चेष्टाकारणम् तदेव मम मनसि अस्ति भगिनि. किन्तु चेष्टते इति प्रायशः तदेव भवति. चेष्टते इति चेष्टा करोति इति तादृश अर्थे इति मन्ये. इति मन्ये. किन्तु द्रष्टव्यमस्ति.
महोदय, अवलोकते क्वान्तरूपम् अवलोक
पश्यामः भगिनि अग्रे. इदानीम् एतत् सर्वम् अस्ति, तस्य अभ्यासं कुर्मः. लेब् प्रथमतया त्वान्त, तदनन्तरं लेब् अग्रे आगच्छति तत्. इदानीं तत्र वयं किं कुर्मः? अग्रिमपुटे अभ्यासः यदस्ति तत् कुर्मः. तत्र तदनन्तरं वाक्यमपि. तत्र प्रथमतया रूपं कीदृशम् इति तद् मनसि स्थापयामः. तत्र इदानीं शुभा भगिनी आरम्भं करोति वा? तत्र गच्छति इति अस्ति, रचयति पर्यन्तं वदति वा भगिनि अग्रिमपुटे?
यथोदाहरणं रिक्तस्थानानि पूरयेत. गच्छति गत्वा. तिष्ठति स्थित्वा. पश्यति दृष्ट्वा. रचयति रचयित्वा.
रचयित्वा इति समीचीनं भगिनि. तत्र गच्छति गत्वा इति तद् सेट् अस्ति वा अनिट् अस्ति वा
इत्युक्ते किं महोदय?
तत्र सेट् इत्युक्ते मध्ये इकारः आगच्छति. सेट् इकारः न भगिनि, तत्र गच्छति रूपं भवति गत्वा. तत्र मध्ये इकारः आगच्छति वा?
न.
अतः तद् अनिट् इति वदामः. तत्र इकारस्य इकारः न पश्यामः, न दृश्यते इति कृत्वा तद् अनिट् इति वदामः. तत्र केवलम् एतद् प्रारम्भस्तरीयव्याकरणम् अंशः अस्ति. केवलं तत्र यदि त्वान्तरूपस्य निर्माणे इकारः मध्ये आगच्छति चेत् तत्र वयं सेट् धातुः इति वदामः. तत्र घं धातुः सेट् नास्ति, घं धातुः अनिट् अस्ति. तत्र मध्ये इकारः न आगच्छति. तदनन्तरं तिष्ठति इति तत्र स्थित्वा इति अस्ति. तत्र स्था धातुः अस्ति, तद् अनिट् एव अस्ति, किन्तु तद् अपवादः अस्ति अत्र, तत् अन्यविचारः इदानीं त्यजामः, मास्तु। अग्रे पश्यति इति, तत्र दृष्ट्वा, तत् सेट् वा अनिट् वा? मध्ये इकारः, इकारः नास्ति, इकारः नास्ति चेत् अनिट् इति, अनिट् अस्ति चेत् स इट् अस्ति इति, स योगः इट् सेट् इति वदामः, स योगः इट् सेट्, इकारः आगच्छति चेत् सेट्, नास्ति चेत् अनिट्, अनिट्
रचयति रचयित्वा रचयित्वा सेट्
सेट् अस्ति, हा तत्र इकारः अस्ति, समीचीनं भगिनि, हा अस्तु। हा इदानीं शोभा भगिनि अग्रे।
आं महोदय, नयति नीत्वा, गायति गीत्वा, तत्र नयति नीत्वा गीत्वा सेट् अस्ति खलु महोदय?
न न, तत्र भगिनि तत्र तादृश
दृश्यते,
किन्तु किन्तु तत्र धातु अस्ति नी इति, अतः ईकारः धातुः एव अस्ति, अतः तत् अतः तत् अनिट् अस्ति, तत् अनिट् अस्ति। गीत्वापि तत्र गीत्वा इति अस्ति, किन्तु तत्र घै धातुः अस्ति, तदपि अनिट् एव अस्ति।
नमति
तद् भवति नत्वा इति, नत्वा इति रूपं,
ददाति दत्वा,
दत्वा सम्भाषणे दृष्टवन्तः खलु, दत्वा राज्यं दत्वा इति, अनिट् एव अस्ति, नत्वा अनिट् अस्ति, दत्वा अपि अनिट् एव अस्ति, स्मर समीचीनं भगिनि, अस्तु। अग्रे रघुपति महोदय स्मरति, तत् अनिट् वा सेट् वा?
अनिट् अस्ति,
अनिट् अनिट् अस्ति,
धावति तत्र सेट् अस्ति, धावित्वा,
धावित्वा इति अस्ति, इकारः अस्ति, सेट् अस्ति, समीचीनं महोदय।
कर्तयित्वा चालयित्वा तत्र, यत्र
तत्रापि इकारः अस्ति, सेट् अस्ति, सेट् अस्ति,
खादित्वा तदपि,
खादित्वा तदपि सेट् अस्ति, समीचीनं महोदय, अस्तु। तत्र अग्रे वंशीसुधा भगिनी, चालयति इति,
चालयति चालयित्वा,
तत्र इकारः अस्ति वा मध्ये? अतः स योगः इट् सेट् इति, सेट् सेट् धातुः अस्ति, तदपि सेट् अस्ति,
चोरयति चोरयित्वा,
तदपि सेट् भवति, अस्तु। अग्रे त्यजति,
त्यजति त्यक्त्वा,
त्यक्त्वा इति, त्यक्त्वा इति दृष्टवन्तः खलु सम्भाषणे, त्यक्त्वा तत् सेट् वा अनिट् वा? अनिट् महोदय, अनिट्, तत्र इकारः नास्ति, अस्तु। पूरयति इति,
पूरयति पूरयित्वा,
पूरयित्वा, समीचीनं भगिनि, अस्तु समीचीनं। अग्रे अरुणा भगिनि,
वर्णयति वर्णयित्वा,
तत्र इकारः अस्ति वा?
सेट्
सेट् अस्ति, समीचीनं।
कथयति कथित्वा,
न न कथयित्वा,
कथयित्वा
सेट् एव, चलति
चलित्वा,
दत्तं कोष्टके पूर्वस्मिन् पुटे कोष्टकमस्ति खलु, तत्र चलति चलित्वा,
इट् अस्ति सेट्,
सेट् अस्ति, अपि
भक्षयति
भक्षयित्वा इति, तदपि सेट् एव अस्ति। तत्र एकम् अस्ति, तत्र सर्वदा एतादृश नास्ति, किन्तु एकः वक्तुं शक्नुमः अत्र, तत्र धातुः हलन्तधातुः इत्युक्ते व्यञ्जनम् अन्ते अस्ति चेत् तद् आधिक्येन सेट् भवति। तत्र छल् धातुः इति पश्यामः, अस्माकं कार्यं किं, तत्र क्रियापदस्य कीदृशरूपं कर्तुम् इच्छामः अत्र, त्वान्तरूपं खलु, अतः किं कुर्मः, धातु छल् धातुः तस्य योगः क्त्वा इति, तत्र छल् योगः कृत्वा तत्र किं भवति? तत्र अनेकानि व्यञ्जनानि सन्ति खलु एकस्मिन् स्थाने, छल् प्लस् त्वा, अतः तत्र मध्ये इकारः आगच्छति छलित्वा इति, नो चेत् छल्त्वा इति तत्र क्लेशः भवति. अतः आधिक्येन हलन्तधातुः अस्ति चेत् आधिक्येन सेट् भवति. अजन्तधातुः नाम स्वरः अन्ते अस्ति चेत् अजन्तधातुः आधिक्येन अनिट् एव भवति. किन्तु सर्वदा तादृश नास्ति, अपवादाः तु सन्ति, किन्तु आधिक्येन एतादृश भवति. अस्तु, इदानीं तत्र तस्य प्रयोगः, त्वान्तरूपस्य प्रयोगः सम्भाषणे दृष्टवन्तः. इदानीम् अन्यानि वाक्यानि अपि पश्यामः यस्मिन् त्वान्तरूपम् अन्तर्भूतः अस्ति. इदानीं तत्र गीताञ्जलि भगिनी अग्रिम अभ्यासम् आरम्भं करोति वा?
आम् महोदय. एतानि वाक्यानि पठत, क्वान्तरूपाणि अवलोकयत च. शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व.
अवगच्छति वा?
शत्रून् जित्वा इत्युक्ते, शत्रून् इत्युक्ते कर्मपदं बहुवचन अस्ति. जित्वा इत्युक्ते जी धातु जयति, किन्तु भूतकालरूपं जित्वा. शत्रून् जित्वा समृद्धं राज्यं, समृद्धं विशेषणं, राज्यं विशेष्य. भुङ्क्ष्व, भुङ्क्ष्व इत्युक्ते भुङ्क्ते इति.
सत्यं सत्यं भगिनि, सत्यं. भुज् धातुः,
भुज्
धातुः. भुङ्क्ष्व इति रूपं रूपं किम् इति जानाति वा? तत्र भुङ्क्ष्व इति लोट्लकार मध्यमपुरुष, एकवचन. तत्रैव वकारः भवति खलु, लोट्लकर मध्यमपुरुष एकवचन. तत्र आत्मनेपदी इति खलु, आत्मनेपदी रूपम् अस्ति. समीचीनं भगिनि. अस्तु, अग्रिमम्.
अग्रिमं शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु. अत्र ज्ञात्वा इति त्वान्त पदम् अस्ति. ज्ञात्वा इत्युक्ते ज्ञा धातु, जानाति इति लट् रूपम् अस्ति चेत् भूतकालरूपं त्वान्तप्रत्यय योजयित्वा त्वान् ज्ञात्वा शास्त्रविधानोक्तम् इत्युक्ते शास्त्रविधान उक्तम् इति.
तस्य ज्ञानं प्राप्त्वा,
तदनन्तरं किमपि कर्म
कार्यं, यदपि यत् कार्यं करोति तद् प्रथमतया तस्य पूर्वं किं शास्त्रविधान यद् उक्तम् अस्ति, किं किं करणीयं, किं किं न करणीयम् इति तस्य ज्ञानं प्राप्त्वा
कार्यं करोतु.
कर्म कुर्वन्तु,
प्रेरणा तत्र बहुवचनरूपं.
सत्यं, समीचीनं भगिनि. अतः तत्र वाक्यद्वयं कुर्मः चेत् किं भवति? शास्त्रविधानोक्तं जानन्तु,
जानन्तु
इति लोट्लकारे अस्ति, कुर्वन्तु इति लोट्लकारे अस्ति इति कृत्वा
लोट् बहुवचन.
जानन्तु,
प्रथमतया शास्त्रविधान उक्तं जानन्तु, तदनन्तरं किमपि कर्म
कुर्वन्तु इति. समीचीनं भगिनि, समीचीनम्. अस्तु, अग्रे शुभा भगिनि.
पाण्डवसेनां दृष्ट्वा दुर्योधनः ब्रवीति. दृष्ट्वा इत्यस्य क्रियापदं पश्यति,
पश्यति. तत्र दृष्धातुः, दृष्धातुः पश्यति इति रूपं क्रियापदलट्लकररूपं. पाण्डवसेनां दुर्योधनः पाण्डवसेनां पश्यति, तदनन्तरं सः ब्रवीति
शास्त्रविधानोक्तम् इति पदं स्वान्तरूपम् अपि समीचीनम् अत्र शास्त्रविधानो विधानुक्त्वा
किमर्थं
शास्त्रविधानोक्तं प्रथमकार्यं
किन्तु भगिनी तत्र तं ज्ञात्वा तद् ज्ञात्वा तस्य ज्ञानं प्राप्त्वा तदनन्तरं कार्यं करो तत्र केवलं हा
अत्र शास्त्रविधान विधानज्ञान विषये ज्ञान प्राप्त्वा ओ अस्तु अत्र कर्मपदमस्ति
शास्त्रविधानोक्तं कर्मपदमस्ति भगिनि तत्र तस्य ज्ञानं प्राप्त्वा केवलं तत्र शास्त्रविधानम् एतद् अस्ति इति उक्त्वा कर्मं करोतु इति नास्ति तत् किञ्चित् भिन्नः अस्ति
अवगच्छामि तदनन्तरं
महोदय
वदतु भगिनि
स्वान्तरूपपद पूर्वं कर्मपदमस्ति कर्मपदम्
किमर्थं चेत् तत्र हा किमर्थं चेत् तत्र कार्य प्रथमकार्य प्रथमतया एकं कार्यं भवति तदनन्तरं द्वितीयकार्यं भवति मिलित्वा वक्तुम् इच्छामः अतः एकं कृत्वा अन्यत् भवति इति अस्माकम् आशयः अत्र खलु अतः एकं प्रथमकार्यं तत्र दृष्ट्वा ज्ञात्वा जित्वा उक्त्वा गत्वा गृहीत्वा इति तत्र तद् प्रथमकार्यं सूचयति तदनन्तरं यत् कार्यं भवति तद् अग्रिमे यत् वाक्यमस्ति तद् सूचयति समीचीनं वा अरुणा भगिनि अस्तु अग्रे वदतु भगिनि शुभा भगिनि
हत्वा भोगान् कथं भुञ्जीय
धातुः इति एव अस्ति इति चिन्तयामि भगिनि
भगवद्गीता गुरून् हत्वा हन्ति तदनन्तरं भुञ्जीय भुञ्जीय इत्युक्ते किं महोदय
तत्र कथं भोक्तुं भोगान् कथं भुञ्जीय तस्य भोगः कथम् अनुभवं तस्य अनुभवः कथम् अनुभवः कथं भवति हा कथं भुञ्जीय द्रष्टव्यमस्ति भगिनि इदानीं न स्मरामि उत्तमप्रश्नः एव उत्तमप्रश्नः एव मनसि भुञ्जीय इति कीदृश
लुप्तेन त्यक्तेन भुञ्जिता इति समानेव भुञ्जि
किन्तु अस्तु भगिनि किन्तु भुञ्जीय इति रूपं किम् इति भुञ्जीय इति वंशीसुद भगिनि दृष्ट्वा वदामि भगिनि धन्य उत्तमप्रश्नः एव अस्तु अग्रिमवर्गे वदामि अस्तु अग्रे अग्रे उषा भगिनि
एवम् उक्त्वा अर्जुनः उपाविशत् एवम् उक्त्वा उक्त्वा वदति वच् धातु अर्जुनः उपाविशत् उपसर्गपूरक
समीचीनम्
उपयोगः
अविशत् उपाविशत् लङ्लकारः उपविशति उपविशति लट्लकररूपं लङ्लकररूपम्
उपाविशत्
उपाविशत् समीचीनं भगिनि अस्तु शोभा भगिनि अग्रे
आं महोदय तद् महोदय अत्र अहं पश्यामि विधिलिङ्ग् अपि आशीर्लिङ्ग् उत्तमपुरुषे वन्देय वन्दिशीय इति भुञ्जीय इति
प्रायशः विधिलिङ्गे एव अस्ति. अस्तु, हा भुञ्जीय इति प्रायशः विधिलिङ्गे एव अस्ति. हा हा, धन्यवादः भगिनि. प्रायशः अस्तु, धन्यवादः. हा अस्तु भगिनि.
तद्
विधिलिङ्गे एव अस्ति. अस्तु, धन्यवादः. अस्तु, हा
तद् धाम गत्वा न निवर्तते. तत् तद् धाम गत्वा, तत्र धाम गत्वा त्वान्त पूर्वं कर्मपदम् अस्ति चेत् तत्र तद् धाम, धाम नपुंसक अस्ति वा महोदय?
हा इति मन्ये भगिनि. धाम
गत्वा
कर्मपदमेव अस्ति. कर्मपदमेव अस्ति,
कर्मपदमेव. तत्र गत्वा गम् धातोः गम् धातुः अकर्मक अस्ति.
सकर्मक, सकर्मक.
गम् धातोः महोदय, महोदय
गच्छति. कुत्र किं गच्छति इति अहं गमम्
विशेषपदम् अस्ति वा महोदय? गम् धातोः अकर्मक इति
सकर्मक एव.
सकर्मकम् इति भगिनि, सकर्मक एव भगिनि इति मन्ये.
किं गच्छति इति,
हा इति, तत्र कुत्र गच्छति इति अर्थे,
किं गच्छति इति न
इति प्रश्नः, इति प्रश्नः, किन्तु अर्थः अस्ति तत्र कुत्र इति. तत्र कुत्र गच्छति इति अर्थः भगिनि, किन्तु प्रश्नः अस्ति किं गच्छति इति.
अहं श्रुतवती अन्य अन्य वर्गे महोदय
दत्यर्थकदातु अपि किं किं भिन्ना अस्ति, अकर्मक अस्ति. परन्तु अत्र गच्छति इति गम् दातु सकर्मक एव.
अस्तु अस्तु, धन्यवादः.
ग्रामं ग्रामं गच्छति, नगरं गच्छति.
तत्र धामन् इति, तत्र धामन् इति नकारन्त नपुंसकलिङ्गपदम् इति मन्ये भगिनि. धामन् धाम निवासं, निवासम् इति अर्थे.
गत्वा न निवर्तते, नि उपसर्ग पूर्वकः वर्तते,
वर्तते,
निवर्तते.
वदतु
जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति. जीवः इन्द्रियाणि गृहीत्वा गृह्णाति इति पदस्य त्वान्तरूपं गृहीत्वा इन्द्रियाणि, तत्र कर्मपदं बहुवचने.
समीचीनं.
नवं शरीरं याति, नवम् अत्र नूतन इति शरीरं, याति इत्युक्ते
गच्छति अथवा प्राप्नोति,
आयाति इत्यस्य
तत् आयाति, यत्र याति गच्छति इत्यर्थे.
आं महोदय.
जीवः अन्यत् शरीरं गच्छति,
गच्छति
नवशरीरं गच्छति, नूतनशरीरं गच्छति. समीचीनं भगिनि. अस्तु, अग्रे उमा मीनाक्षी भगिनि.
ओके, सर्वदा यदा स्वान्तरूपम् अस्ति तत्र द्वितीयाविभक्ति भवति एव वा?
कर्मपदं भवति खलु. किं कृत्वा इति, किमपि कृत्वा अन्यत् कार्यं भवति अतः.
ओके, भोगान्
तत्र भगिनी, भगिनी सर्वदा कर्मपदं तत्र द्वितीयविभक्तिरूपं भवति इति नास्ति. तत्र क्रियापदस्य क्रियापदं सकर्मकक्रियापदं वा अकर्मकक्रियापदं वा इति, तत्र अहं हसित्वा वदामि. तत्र किं कर्मपदं तु नास्ति खलु.
अत्र ये यानि वाक्यानि सन्ति
अत्र सर्वत्र
सर्वत्र
सत्यं सत्यं सकर्मकक्रियापदम् अस्ति प्रथमं सत्यम्
इतोपि एकम् अन्य प्रश्नः अस्ति किम् अस्ति भुङ्क्ष्व भुञ्जीय इदानीं वन् मोर् ऐ
जस्ट्
भक्षयति भुक्त्वा
भक्षयति इति भिन्नम् अस्ति भगिनि भक्षयति इति भिन्नम् अस्ति
तदपि खादनविषयमेव
सत्यं 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 भोगस्य विषयं भुञ्जीय भुङ्क्ते इति सत्यं समानार्थकम् इति मन्ये किन्तु भक्षयति इति भिन्नम् इति मन्ये किन्तु तत्र भुञ्जीय अपि भुक्त्वा तत्र किं भुङ्क्ते
तत्र भोगान् लिखितम् अस्ति भोगान् तदपि भुङ्क्ष्व भक्षयति तत् वट् इस् इट् रूट् तत्र एव अस्ति न
सत्यं 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 भगिनि तादृश एव मन्ये इति
सुपर् संस्कृत
वदतु भगिनि तत्र वाक्यं
अत्र भुक्त्वा अपि अस्ति न भोगान् भुक्त्वा
भुक्त्वा इति अस्ति पूर्वस्मिन् पुटे भुङ्क्ते
भुञ्जीय तदपि शक्यं न
भुञ्जीय इति भुज् धातुः तदपि
भुज् धातु एव
भुज् धातुः एव सत्यं भगिनि किन्तु रूपं भिन्नरूपम् अस्ति इदानीं तत्र
लेबन्तरूपं त्वान्तरूपं कुत्रापि
न तत्र लेबन्तरूपं नास्ति भुञ्जी इति लेबन्तरूपं नास्ति इदानीं वाक्यं वदतु
भोगान् भुक्त्वा जीवः पुनः मर्त्यलोकं मृशति
विशति विशति प्रवेशं करोति इति प्रवेशं करोति इति
ओके मर्त्यलोकम् इत्युक्ते किं भूलोकं वा
यस्य मरणं भवति सः मर्त्यलोकं यत्र मरणं भवति इति मर्त्यलोकः
अतः भोगान् भुक्त्वा सम्यक्तया खादनं कृत्वा
भोगान् भुक्त्वा जीवः पुनः
जीवः इत्युक्ते मनुष्यः पुनः तत्र एव आगच्छति
जीवः 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 पुनः मर्त्यलोकं प्रवेशं करोति पुनः प्रविशति इति अस्तु अग्रे तत्र केवलं द्वयमेव अस्ति किन्तु अग्रिमवर्गे कुर्मः समयः जातः इति कृत्वा किन्तु त्वान्तरूपस्य प्रथम किम् अभ्यासः अस्माभिः कृतः अग्रिमे वर्गे तत्र इतोपि कुर्मः तत्र अभ्यासत्रयम् अपि अस्ति तदनन्तरं कथा अपि अस्ति त्वान्तरूपम् उपयुज्य अस्तु एतत् सर्वम् अग्रिमे वर्गे कुर्मः अस्तु तर्हि समयः जातः कोऽपि प्रश्नः अस्ति वा
ब्रवीति इत्युक्ते स्पीक्
वदति वदति सत्यं भगिनि सत्यं ब्रवीति इति वदति एव अस्तु तर्हि अग्रिमवर्गे मिलामः सर्वेभ्यो नमः धन्यवादः
नमस्कारः
नमस्कारः नमस्ते महोदय धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः